ಕಾರಕಪ್ರಕರಣೆ ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ವಿಚಾರ ಅನುವರ್ತ್ಯತೆ. ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ಆದೌ ಕರ್ಮಕಾರಕಂ ನಾಮ ಇತಿ ವಿಚಾರಸ್ಪತಃ ಕರ್ಮ ಸಂಯೋಗಿಧಾಯಕಂ ಏಕಂ ಸೂತ್ರಂ ಅಧೀತಂ ಕರ್ತೃಇಚ್ಛಿತತಮಂ ಕರ್ಮ ಇತಿ. ಕರ್ತೃ ಇಚ್ಛಿತತಮಂ ಕರ್ಮ, ಕರ್ತೃ ಕ್ರಿಯೆಯಾ ಆಪ್ತು ಇಷ್ಟತಮಂ ಕಾರಕಂ ಕರ್ಮ ಸಂಯಂ ಸ್ಯಾತ್ ಇತಿ ಸೂತ್ರಾರ್ಥಃ. ತೇನ ಕಸ್ಯಚಿತ್ ಕಾರಕಸ್ಯ ಕರ್ಮ ಸಂಯಾಯಾಂ ಪ್ರಾಪ್ತಾಯಾಂ ಕರ್ಮಣಿ ದ್ವಿತೀಯ ಇತಿ ಸೂತ್ರೇಣ ಅನಭಿಹಿತೇ ಕರ್ಮಣಿ ಅನುಕ್ತೇ ಕರ್ಮಣಿ ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ಸ್ಯಾತ್ ಇತಿ ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ವಿಧೀಯತೆ. ಉದಾಹರಣಾರ್ಥಂ ಹರಿಂ ಭಜತಿ ಚೇತೆ ಹರಿಶಬ್ದಸ್ಯ ಕರ್ತೃಪ್ಸಿತತಮಂ ಕರ್ಮ ಇತ್ಯನೇನ ಕರ್ಮ ಸಂಜ್ಞಾ ಕರ್ಮಣಿ ದ್ವಿತೀಯ ಇತ್ಯನೇನ ದ್ವಿತೀಯ ವಿಭಕ್ತಿಶ್ಚ ವಿಹಿತಃ. ತತ್ರ ಅನಭಿಹಿತೇ ಇತ್ಯಧಿಕಾರಃ ಅಸ್ತಿ ಅರ್ಥಾತ್ ಅನುಕ್ತೇ ಕರ್ಮಣಿ ಕೋರ್ಥಃ ಅನುಕ್ತೇ ಕರ್ಮಣಿ ಕರ್ಮಸ್ಯ ಉಕ್ತಿಃ ಕದಾ ಭವತಿ ಅಭಿಹಿತತ್ವಂ ಕದಾ ಇತಿ ಪಶ್ಯಾಮಃ. ಅಭಿಹಿತೇ ತು ಕರ್ಮಣಿ ಪ್ರಾತಿಪದಿಕಾರ್ಥ ಮಾತ್ರೇ ಇತಿ ಪ್ರಥಮ ಇವ ಭವತಿ. ಪ್ರಥಮ ವಿಭಕ್ತಿ ಅಧೀತ ಪ್ರಾತಿಪದಿಕಾರ್ಥ ಮಾತ್ರ ಪ್ರಾತಿಪದಿಕಾರ್ಥ ಲಿಂಗ ಪರಿಮಾಣ ವಚನ ಮಾತ್ರೇ ಪ್ರಥಮ ಇತಿ. ಯದಿ ಕರ್ಮಸ್ಯ ಅಭಿಧಾನಂ ಜಾತಂ ಇಫ್ ದ ಕರ್ಮ ಹ್ಯಾಸ್ ಆಲ್ರೆಡಿ ಬೀನ್ ಟೋಲ್ಡ್ ಬೈ ಸಮ್ ಅದರ್ ವರ್ಡ್ ಇನ್ ದ ಸೆಂಟೆನ್ಸ್ ತದಾ ಕರ್ಮಕಾರಕಸ್ಯ ಅಪಿ ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ನ ಭವತಿ ಪ್ರಥಮ ವಿಭಕ್ತಿರೇವ ಭವತಿ. ಕಸ್ಮಿನ್ ಅರ್ಥೇ ಪ್ರಥಮ ಪ್ರಾತಿಪದಿಕಾರ್ಥ ಮಾತ್ರ ಅಥವಾ ಲಿಂಗಾಧಿಕ್ಕೆ ಪ್ರಥಮ ಇತಿ ಉಚ್ಯತೆ. ಉದಾಹರಣಂ ಕಿಂ ಭಕ್ತೇನ ಹರಿಃ ಭಜ್ಯತೆ ಭಕ್ತಃ ಹರಿಂ ಭಜತಿ ಇತಿ ಕರ್ತರಿ ಪ್ರಯೋಗೇ ಅಸ್ತಿ. ಕರ್ಮಣಿ ಪ್ರಯೋಗೇ ಭಕ್ತೇನ ಹರಿಃ ಭಜ್ಯತೆ. ಅತ್ರ ಕಿಂ ಜಾತಂ ತೇ ಇತಿ ಪ್ರತ್ಯಯಃ ಅಸ್ತಿ ಕಿಂ ಪ್ರತ್ಯಯಃ ತೇನ ಪ್ರತ್ಯಯೇನ ಕರ್ಮಕಾರಕಂ ಉಕ್ತಂ ಕಿಮರ್ಥಾಃ. That is why we did in the Pithika, we did dhatvartha and tingartha. Dhatvarthaha, vyaparaha, phalam, tathaiva tingarthaha, karaka, sankhya, kalaha. Karakam, katrukarakam, athava karmakarakam, yam sankhya, kalascha, iti adhitam. Inani matra, se iti yaha prateha, ya se iti, yak iti karmani yak prateha, tathaiva se iti atmanevara prateha. ಏನ ಪ್ರತ್ಯಯನ ಕರ್ಮಕಾರಕಂ ಅಭಿಹಿತಂ ದಟ್ ಪ್ರತ್ಯಯ ಹ್ಯಾಸ್ ಬೀನ್ ಡನ್ ಇನ್ ದ ಸೆನ್ಸ್ ಆಫ್ ಕರ್ಮ. ಇಟ್ ಆಲ್ಸೋ ಟೆಲ್ಸ್ ಸಂಖ್ಯಾ ಏಕವಚನ ತಥೈವ ವರ್ತಮಾನ ಕಾಲ ಅಪಿ ಉಚ್ಯತೆ ತಥೈವ ಕರ್ಮಕಾರಕಂ ಉಚ್ಯತೆ. ಕರ್ಮಣಃ ಅಭಿಹಿತತ್ವಾತ್ ಸಿನ್ಸ್ ದ ಕರ್ಮಕಾರಕ ಹ್ಯಾಸ್ ಆಲ್ರೆಡಿ ಬೀನ್ ಟೋಲ್ಡ್ ಬೈ ಸಮ್ ಅದರ್ ಪಾರ್ಟಿಕಲ್ ದಟ್ ಇಸ್ ದೇ ಪ್ರತ್ಯಯ. ಯತ್ ಕರ್ಮಕಾರಕಂ ಅಸ್ತಿ ದಟ್ ವರ್ಡ್ ವಿಚ್ ಇಸ್ ಆಕ್ಚುಲಿ ಕರ್ಮಕಾರಕ ವಿಚ್ ಇಸ್ ಹರಿ ಶಬ್ದ ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ನ ಭವತಿ. ಕರ್ಮಣಃ ಅಭಿಹಿತತ್ವಾತ್ ಕಿಂ ಪ್ರತ್ಯಯೇನ ಕರ್ಮಣಃ ಅಭಿಹಿತತ್ವಾತ್ ಹರಿ ಶಬ್ದಾತ್ ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ನ ಭವತಿ. ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ನ ಭವತಿ ಚೇತ್ ಕಿಂ ಕರಣೀಯಂ ಇತಿ ಪ್ರಶ್ನೆ ಪ್ರಾತಿಪದಿಕಾರ್ಥ ಮಾತ್ರೇ ಇತ್ಯನೇನ ಪ್ರಥಮಾ ಭವತಿ. ಇದಮೇವ ಅಭಿಹಿತೇ ಕರ್ಮಣಿ ಪ್ರಥಮ ಇತಿ ಉಚ್ಯತೆ. ದಿಸ್ ಇಸ್ ಕಾಲ್ಡ್
ಉದಾಹರಣಾರ್ಥಂ ಬಾಲಃ ಗಚ್ಛತಿ ಇತ್ಯತ್ರ ಬಾಲಃ ಇತಿ ಪ್ರಥಮ ವಿಭಕ್ತಿ ಕರ್ತೃತ್ವೇ ನಾಸ್ತಿ ಇತಿ ಮಯಾ ಪೂರ್ವಮುಕ್ತಂ. ಕಿಮರ್ಥಂ ತತ್ರ ಗಚ್ಛತಿ ಇತ್ಯತ್ರ ಸಿ ಪ್ರತ್ಯಯೇನ ಕರ್ತಾ ಉಕ್ತಃ ಕರ್ತೃಕಾರಕ ಹ್ಯಾಸ್ ಆಲ್ರೆಡಿ ಬೀನ್ ಟೋಲ್ಡ್ ಬೈ ದ ಸಿ ಪ್ರತ್ಯಯ ಕಿಂ ಪ್ರತ್ಯಯ ಇನ್ ದ ಸೆಂಟೆನ್ಸ್. ದಟ್ ಇಸ್ ವೈ ದ ವಿಭಕ್ತಿ ಇಂಟೆಂಡೆಡ್ ಫಾರ್ ಕರ್ತೃಕಾರಕ ಇಸ್ ನಾಟ್ ಅಪ್ಲಿಕೇಬಲ್. ವಸ್ತುತಃ ಕರ್ತೃಕಾರಕಸ್ಯ ವಿಭಕ್ತಿ ತೃತೀಯ ವಿಭಕ್ತಿ ಕರ್ತೃಕರಣಯೋ ತೃತೀಯ ಇತ್ಯನೇನ ಕರ್ತೃಕಾರಕಸ್ಯ ತೃತೀಯ ವಿಭಕ್ತಿ ಉಚ್ಯತೆ. ಕಾಲೇನ ಗಮ್ಯತೆ ಕಾಲೇನ ಪಠ್ಯತೆ ಇತ್ಯಾದಿ ಸರ್ವತ್ರ ಕರ್ತೃಕಾರಕಸ್ಯ ತೃತೀಯ ವಿಭಕ್ತಿ ಭವತಿ. यदा तत्कारकं कर्तृकारकं अन्येन केनापि उक्तम् उदाहरणार्थं किं प्रत्ययेन उक्तम् तदा कर्तृकारकसूचकपदस्य तद्विभक्तिः तृतीया विभक्तिः न भवति तदा प्रातिपदिकार्थमात्रे प्रथमा. That is why whenever we have prathama vibhakti, we cannot say is it kartrakaraka or karmakaraka. It could be both. It could be something else also. Prathama vibhakti hi prathiparikarthe eva. Arakasya abhidhanam tu vibhaktya bhavitum arhati. Yadi tasya karakasya anyena kenasit abhidhanam jatam, tada tasmata prathama vibhakti eva bhavati. That is the general concept of anabhihita adhikara, which appears everywhere in the entire Karaka Prakaran. Abhidhanam katham bhavati iti idaniyam prashna. Udaharanam asmabhihi drishtam bhaktena harihi sajyate ityartha tim pratyayena karmakarakam abhihitam iti drishtavantaha. Kevalam tim pratyayena abhidhanam bhavati va anyenapi padena abhidhanam bhavitum arhati va iti prashnaham. तदा उच्यते अभिधानं च प्रायेण किं कृत् कथित समासः अभिधानं नाम वचनं लीन्सोल्ड् अनभिहिते इत्युक्ते अनुक्ते अभिधानं नाम वचनं टु बी टोल्ड् सो हौ केन् द कर्मकारक बी टोल्ड् वन् वे द कर्मकारक इस् बी कन्वे इस् टु द द्वितीया विभक्ति सो द्वितीया विभक्ति कन्वे कर्मकारक. But other than that, the thing pratyaya, as we saw, bhaktena harihi bhajyate, karmani prayoge, thing pratyayena karma uchyate. Na kevalam thing pratyayena, sadanchit krit pratyayena abhidhanam bhavati, tadhita pratyayena abhidhanam bhavati, samasena api abhidhanam bhavitam arhati. Katham iti udaharanani diyante dikshitai. So your friends, I am using whiteboard 119, if somebody is not able to see the presentation. Whiteboard Sankhya 119, Chishya Prayoga Kriyata. Yadi na drishyate, Kupaya Maya Idani Mera. Adhyasnataha presentation Kriyashitam, Chishya Prayoga Kriyata. Kina Abhidhanam. Kina Prasayena Abhidhanam Katham. Idani Mera Drishtam. Yatha Harihi Bhajyate. Harihi Sevyate. लक्ष्मीः हरिं सेवते इति सत्तरिप्रयोगः. लक्ष्मीः हरिं सेवते सेवनक्रियायां हरिः कर्म कर्तुरीक्षिततमं कर्म इत्यनेन हरिशब्दस्य कर्मसंज्ञा भवति. कर्मणि द्वितीया इत्यनेन द्वितीया अपि भवति. कथं भवति? सेवते इत्यत्र सेवधातुः अस्ति, से प्रत्ययः अत्र प्रत्ययेन कर्ता उच्यते. प्रत्ययः यत् इन् सत्तरिप्रयोग इस् इण्डिकेटिङ्ग् कर्ता. कर्मणः अनभिहितत्वा सिन्स् कर्म हस् नाट् बीन् टोल्ड् बै एनिथिङ्ग् एल्स् कर्मकारक हरिशब्द द्वितीया विभक्ति. अनेन किं प्रत्ययेन कर्तुः अभिहितत्वात् कर्तृपदस्य प्रथमा विभक्तिः भवति, द्वितीया विभक्तिः न भवति इति स्थितिः. यदा तु कर्मणि प्रयोगः भवति लक्ष्म्या हरिः सेव्यते. हरिः सेव्यते इत्यस्य कर्त्री लक्ष्मीः, लक्ष्म्या हरिः सेव्यते. अत्र धातोः इतिकः किं प्रत्ययः तेन कर्म योज्यते. कर्मणि सप्रत्ययः कृतः. कर्मार्थतः किं प्रत्ययः? किं प्रत्ययेन कर्मणः अभिहितत्वात् हरिशब्दात् द्वितीया विभक्तिः न भवति. सिन्स् इट् हेस् आल्रेडी बीन् टोल्ड् अभिधानं जातम् इत्यतः अनुक्ते कर्मणि द्वितीया इति इहिका विभक्तिः न भवति. हरिशब्दात् प्रातिपदिकार्थे प्रथमा. Same way, since the thing that they are feeling karma and not karta, kartrapadasya krutiyaya bhakti bhavati. Lakshmya harihi sevyate. Sarvatra evamiva. Idam tu thing pratyayena abhidhanam. Thing pratyayena karma uchyate. Evamiva, krit pratyayena api kartuhu abhidhanam bhavitum arhati. Lakshmya sevitaha. Sivideva akhe. लक्ष्मीः हरिं सेवितवती इति भवति. सेवते इति सिंहः प्रयोगः, सेवितवती इति कृतः प्रयोगः. स अनुक्रमतु कृत्प्रत्यय. कृत्प्रत्ययाः धातोः भवन्ति. कृत्प्रत्ययः सर्वे आन् धातु भिन्नेषु अर्थेषु भवन्ति. अत्र लक्ष्म्या हरिः सेवितः इत्यत्र देव धातोः कर्मणि सप्रत्ययः कृतः भूते कर्मणि सः. हियर द सप्रत्यय इज इंडिकेटिंग भूतकाल एंड आल्सो कर्मकारक. सेवितवती यत्र धातु प्रत्ययः भवति सः कर्तृत्वे भवति, एवं यत्र सप्रत्ययः भवति तदा कर्मणि प्रत्ययः अर्थात् कर्मकारकम् अभिधीयते कृत् प्रत्ययेन. किङा कृता इति सर्वं तृतीया विभक्तिः, किङा इत्यस्य किं प्रत्ययेन, एवं कृता इत्यस्य कृत् प्रत्ययेन इत्यर्थः. अत्र सप्रत्ययेन कर्मणः अभिहितत्वा अनेन कृत्प्रत्ययेन कर्मणः अभिहितत्वात् हरिशब्दात् द्वितीया विभक्तिः न भवति, प्रातिपदिकार्थमात्रे प्रथमा. इदं तु कृता अभिधानम् सेव्यते इत्यत्र किं प्रत्ययेन अभिधानम्, सेवितः इत्यत्र कृत्प्रत्ययेन अभिधानम्. परिवर्तनं भवति. ते इस् अन् आत्मनेपदप्रत्यय विच् इस् किं बिलोङ्ग्स् टु किं. सो इस् कृत् इदं कृता कृत् प्रत्ययेन अभिधानम् एवं भवितुम् अर्हति. कृत्प्रत्ययेन अभिहिते अपि कर्मपदार्थ द्वितीया न भवति. किं कृत् कथित इति उक्तम्. इदानीं कथितप्रत्ययेन कथम् अभिधानम् इति पश्यामः. शतेन क्रीतः शक्यः इत्यस्ति. अश्वं शतेन क्रीतवान् इति कर्तरि प्रयोगः. Somebody bought a horse with 100 varahas or 100 rupees, whatever is the currency. Ashwam shatena kritavan. It need not be money also. It can be giving 100 of something, some other material also. Ashwam shatena kritavan. Atra ashvaha krayanam. Krayana kriyayam karmakarakam bhavati ashvaha. Tattvarikshita tamam karma ityanena. Ashvaya karma samya bhavati. कर्मणि द्वितीया इत्यनेन द्वितीया. इदानीम् अश्वः शतेन क्रीतः कन्वर्जिस्तु कर्मणि निजग्रीतवान् कर्तरि शतेन क्रीतः इति चेत् अत्र कृदन्तेन उक्तः. क्रीतः इति यदा प्रयोगः भवति तदा कृत्त्वेन सप्रत्ययेन कर्मणः अभिधानम्, अतः कर्मपदात् द्वितीया भक्तिः न भवति. अश्वः शतेन क्रीतः. नौ शतेन क्रीतः इत्यर्थे एव कश्चन कथितप्रत्ययः भवति यत् प्रत्ययः. शतशब्दात् तेन क्रीतः इत्यर्थे यत् प्रत्ययः भवति तदा शक्यः इति कथितान्तं पदम्. शक्यः अश्वः इति यदस्ति, अश्वः शतेन क्रीतः इत्यर्थे शतशब्दात् यत् प्रत्ययः भवति. शताचघन्यता वर्तते इत्यनेन कथितः यत् प्रत्ययः. नौ दिस् यत् प्रत्यय तेन क्रीतः इत्यर्थे कर्मार्थे यत् प्रत्ययः अस्ति. द कर्मकारक हस् बीन् सोल्ड् बै द कथित यत् प्रत्ययः. अत एव अश्वः शक्यः इति प्रयोगे अश्वशब्दात् द्वितीया विभक्तिः न भवति, प्रथमा विभक्तिः. किमर्थम्? अत्र कथितप्रत्ययेन कर्मणः अभिधानम् अस्ति. शक्यः इत्यत्र यत् इति कथितप्रत्ययः, तेन प्रत्ययेन कर्म उच्यते, तस्मात् कर्मवाचकपदात् अश्वपदात् द्वितीया विभक्तिः न भवति, प्रातिपदिकार्थमात्रे प्रथमा. क्वेश्चन्, कृदन्ताः कथितान्ताः, के कृदन्ताः के कथिताः, ग्रेट् टापिक्. किन्तु धातोः कृताः सर्वेऽपि प्रत्ययाः कृदन्ताः. किं प्रत्ययान् निहाय अन्ये सर्वेऽपि, उदाहरणार्थं क्वान्ताः, कृत्वा दत्त्वा, करणीयं कर्तव्यं कृतं कृतवान्, सर्वेऽपि कृदन्ताः. प्रातिपदिकेभ्यः कृताः प्रत्ययाः सज्जितप्रत्ययाः यथा अपत्यार्थकाः सन्ति दशरथस्य अपत्यं दाशरथिः वसुदेवस्य वासुदेवः एवं सज्जितप्रत्ययाः मतुः प्रत्ययः बुद्धिमान् इत्यादयः बहवः सन्ति दर्शितप्रत्ययाः यत्र प्रातिपदिकेभ्यः प्रत्ययाः क्रियन्ते ते दर्शितप्रत्ययाः यत्र धातुभ्यः प्रत्ययाः क्रियन्ते ते कृत् प्रत्ययाः इति साधारणज्ञानं दृश्यते. अत्र उदाहरणवाक्यं सत्यः अश्वः इत्येव अश्वः सत्यः अस्ति इति अवधारणं भवति. अश्वः सत्यः इति उदाहरणं सज्जितेन अभिधानस्य. लिनि प्रत्ययः अपि सज्जितः अर्थात् लिनिः सुदपि अस्ति सज्जितः अपि अस्ति किन्तु लिनि प्रत्ययः धनम् अस्ति अस्ति इति धनी इति यदस्ति सः सज्जितप्रत्ययः. णि सज्जितेन अभिधानं किं कृत् सज्जित समासैः समासेन कथम् अभिधानम् इति द्रष्टव्यम्. प्राप्तः आनन्दः इयं सः प्राप्तानन्दः इति उदाहरणं दीयते. आनन्दः देवदत्तं प्राप्तः इति कर्तरिप्रयोगः विषये कर्तरिप्रयोगः तु कर्मपदाय क्षणीय द्वितीय यु आटोमेटिकलि थिङ्क् आफ् कर्म. सो आनन्दः देवदत्तं प्राप्तः इति कर्तरिप्रयोगः. आनन्दः संस्तु देवदत्त हेपिनेस् हस् अप्रोच् देवदत्त इति प्रापणक्रियायां देवदत्तः कर्म भवति. आनन्दः देवदत्तं प्राप्तः प्रापणं क्रिया तत्र देवदत्तः कर्म. कर्मणः द्वितीयाविभक्तिः दृश्यते. यदा तु द्वितीयार्थ बहुव्रीहिसमासः क्रियते. द्वितीयार्थ बहुव्रीहिः कः इति समासप्रकरणे अधीयते. प्राप्तः आनन्दः यम् सः यम् इति द्वितीयाशक्तिः श्रूयते. द्वितीयार्थ बहुव्रीहिः इति उच्यते. अत्र समासेनैव कर्मणः अभिधानं भवति. यद् समास इत्सेल्फ् इस् इण्डिकेटिङ्ग् द कर्मकारः. देर्फोर् प्राप्तानन्दः देवदत्तः इति यदा उच्यते तदा तत्र द्वितीयाशक्तिः न भवति. Since the karma has been integrated in the sense of the samasa, the samasa itself indicates karma karaka. Therefore, devadattah praptanandah itseva bhavati, devadattam iti dutiyadhaktihi na bhavati. Idam samasena abhidhanam, evam abhidhanam hing pratyena bhavitumarthati, krit pratyena bhavitumarthati, sadhita pratyena bhavitumarthati, athava samasena bhavitumarthati. These are the four usual ways of abhidhana. Abhidhanam katham bhavati. Anena kenapi na abhihitam jet. Yadi karma kinapi noktam, sadapi noktam, sadhitenapi noktam, samakenapi noktam, tada karma karaka dhityanakarji bhavati. When none of these is present indicating karma, then only karma karaka will get dhityanakarji. किन्तु इदं तु प्रायेण इति उच्यते. अभिधानं च प्रायेण किञ्चित् दृढसमासैः प्रायेण तर्हि अन्यत् कथम् इति चेत् क्वचित् निपातेनापि अभिधानम् इति उच्यते. इन् फ्यू केसस् इन् वेरि फ्यू केसस् मैनोरिटि तथापि अस्ति निपातेन अभिधानं भवति. निपातः इति कश्चन प्राचन सम्यक् वराधिश्वरान् निपाताः इत्यधिकारे निपातसंज्ञा उच्यते. तदेषां पदानाम् उदाहरणार्थं सादिगणे पठितानां सादयो सत्रे सादयः आल् दोस् लिस्ट् पूर्वं टीकायां संज्ञाप्रकरणे दृष्टं निपाताः इति सन्ति. निपातैः अपि अभिधानं कर्मणः अभिधानं कर्तुम् अर्हति. उदाहरणं दीयते. इषवृक्षोऽपि संवर्ध्य स्वयं क्षेत्रम् अकाम्प्रतम् अत्र अकाम्प्रतम् इति निपातः. साम्प्रतम् इत्यस्य युध्यते इत्यर्थः. दिस् इस् फिट् आर् डिसर्विङ्ग् इत्यर्थे साम्प्रतम् इति निपातः. साम्प्रतम् इत्यस्य न युध्यते इत्यर्थः. सो इट् इस् नाट् करेक्ट् आर् इट् इस् नाट् फिट्टिङ्ग् इत्यर्थे असाम्प्रतम इति निपातस्य प्रयोगः. इषवृक्षः असाम्प्रतम, एक्चुअली द सेंस विच इज बीइंग कन्वेड बाय दिस सेंटेंस इज इषवृक्षः इवन इफ इट इज अ पॉइजनस ट्री संवर्ध्य स्वयं छेदितुम. इफ यू हैव ग्रोन इट, यू हैव ग्रोन अ ट्री, even if it turns out to be a poisonous tree, you cannot cut it down by yourself. So cut it down by yourself is not okay. I mean, it is, does not usually happen. It is not right. Except asampratam na yujyate ishavrikshasya ki svayam samvardhanam svayam tasya chedanam iti na yujyate iti vakyasya arthaha ishavrikshaha iti vastutaha atra karma karakam. Okay, ishavriksham samvardhya chedanam to grow a ishavriksha and cut it down. Ityarthe karmatvam asti. Kintu asampratam nayujyate ityarthakena asampratam iti nipatena karmanah uktartvam. And you see nayujyate, you can see just like sevyate, bhajyate, yujyate iti karmani vibhakti hai chinna pratyaha asti. So asampratam means nayujyate. So asampratam iti nipatena karma uktartvam. अत्र कर्मणः अभिधानं निपातेन जातम्. सिंस निपात हैज ऑलरेडी टोल्ड कर्म, विषवृक्ष शब्द द्वितीयां विभक्ति न भवति. सो दिस इज वन ऑफ द रेयर इंस्टेंसेस ऑफ अभिधान बाय समथिंग अदर देन द फोर. प्रायेण अभिधानं, बट इन मोस्ट ऑफ द केसेस अभिधानं भवति इन कृत सद्धित समासैः. This is anadhika adhikara. It applies not only to dvitiya vibhakti, to all vibhakti. Sarvatra anadhihite karmani dvitiya, anadhihite kartari tritiya, anadhihite karane tritiya, anukte sampradane chaturthi. Itseva sarvatra uchyate vibhakti adhikare. All vibhakti occur only if only if the particular thing has not been told in by something else. So prashnaha praptanandaha devadattaha. Ityatra gacchati ityatra praptanandasya kim karakam iti prashnaha. किन्तु प्राप्तः आनन्दः यम् इत्यत्र यः प्राप्तिक्रिया अस्ति सम्प्रति तस्य प्राप्तानन्दस्य कर्मत्वम् अस्ति. देर् आर् टु क्रियास् देर् आल्वेस् यु केनाट् डिसैड् अ कारक इण्डिपेण्डेण्ट्लि. लेट् अस् सी विच् क्रिया यु आर् रिलेटिङ्ग् इट् टु. वेन् यु आर् रिलेटिङ्ग् दट् देवदत्ता टु गमनक्रिया, ही इस् कर्ता. But when you are relating that Devadatta or Praptananda, these are the same two, the Prapana Kriya, he is the Karma. Prapana Kriyayam Devadatta Karma, Pramana Kriyayam Karta. Okay, that is one question. Any specific rules it is in us? It's a Deva. लिखितैः उच्यते अभिधानं किञ्चित् कथित समासैः इति स एव नियमः. सः नियमः कथं प्राप्तः इति चेत् केन केन प्रत्ययेन. कर्मणि किं प्रत्ययः विहितः अस्ति पाणिनिना. कर्मणि कृत्प्रत्ययः विहितः, कथितप्रत्ययः विहितः, समासः विहितः. एवं करणे इन् करणार्थ देर् कुड् बि कृत्, देर् कुड् बि कथित, समास एक्सेट्रा. सो एज अ सङ्ग्रह आफ् आल् दट् लुकिङ्ग् एट् वाट् आल् मीनिङ्ग् दोस् डिफरेण्ट् थिङ्ग्स् हाव् दीक्षितैः सङ्गृह्य अत्र उक्तं किञ्चित् कथित समासैः अभिधानं भवितुम् अर्हति.
तो प्रातिपदिकार्थे प्रथम इति सत्यं विभक्तिः प्रातिपदिकार्थे किन्तु कर्तृत्वम् अस्ति यु शुड रिमेम्बर दशनम् सेइंग बालः गच्छति इत्यत्र प्रथमा विभक्तिः कर्तृकारकं न वदति इट डज नॉट मीन बाला इज नॉट द कर्ता ओके बालस्य कर्तृत्वम् अस्ति किन्तु कर्तरि प्रथमा विभक्तिः नास्ति दैट इज माय पॉइंट इट इज नॉट दैट बाला इज नॉट द कर्ता बालः कर्ता एव किन्तु प्रथमा विभक्तिः कर्तृत्वे नास्ति प्रथमा विभक्तिः प्रातिपदिकार्थे कर्तुः अभिधानं किं प्रत्ययेन कर्ता तु बालः एव साम्प्रतम् इत्यस्य इदानीम् इति अर्थः नास्ति सम्प्रति इति चेत् इदानीं नौ इत्यर्थः साम्प्रतम् इत्यस्य युज्यते इत्येव अर्थः गम्यते इत्यस्मिन् क्रियापदे किं कारकम् तस्याः शैलजा भगिन्याः प्रश्नः आसीत् प्राप्तानन्दः इत्यत्र कर्मकारकमस्ति कर्मणः समासेन अभिहितत्वात् प्रथमा इति उक्तम् प्राप्तानन्दः गच्छति इत्यत्र किं कारकम् तस्य इति प्रश्नः आसीत् सो द क्वेश्चन् इस् द कारका केनाट् बि डिसैडेड् बेस्ड् आन् जस्ट् द वर्ड् वदति विच् क्रिया य रिलेटिङ्ग् टु तत्र क्रियाद्वयम् अस्ति प्राप्तानन्दः गच्छति इति यदि वयं वदामः क्रियाद्वयम् अस्ति गमनक्रिया एका प्रापणक्रिया एका प्रापणक्रिया इस् अ पार्ट् आफ् द समास प्राप्तः आनन्दः यं सः इति समासे प्रापणक्रिया अस्ति गच्छति इति गमनक्रिया अस्ति गमनक्रियायां सः प्राप्तानन्दः देवदत्तः कर्ता देवदत्ता इस् द कर्ता फोर् गोयिङ्ग् तत्र कोऽपि सन्देहः नास्ति किन्तु अस्माकं प्रश्नः सः न वि आर् नाट् कन्सिडरिङ्ग् द एक्स्टर्नल् क्रिया वि आर् कन्सिडरिङ्ग् द क्रिया इन्सैड् इत्येत् आनन्दः यं प्राप्तः दट् ही टु हूम् आनन्द हस् कम् तत्र प्रापणक्रियायाम् आनन्दः कर्ता यः सः अन्यपदार्थः कर्म भवति अस्य कर्मणः समासेन अधीतत्वात् तस्मात् द्वितीयाभक्तिः न भवति इति अर्थः रामेण पाठशाला गम्यते तत्र किमस्ति रामः कर्ता पाठशाला कर्म रमणं क्रिया गम्यते इति किं प्रत्ययेन कर्म अभिहितं कर्म भवति पाठशाला रमणक्रिया रामः कर्ता पाठशाला कर्म गम्यते इति कर्मणि प्रयोगेण कर्म अभिहितम् तस्मात् कर्मपदात् पाठशाला इत्यस्मात् द्वितीयाविभक्तिः न भवति प्रथमाविभक्तिः भवति कर्ता रामः न अभिहितः अनभिहितः अनभिहिते कर्तरि तृतीयाविभक्तिः अग्रे उच्यते अतः रामेण इति तृतीयाविभक्तिः अस्ति रामेण पाठशाला गम्यते इषवृक्षः इत्यस्य इत्यर्थः कर्ता कः इति प्रश्नः इति मन्ये किल इषवृक्ष इस् द कर्म हु इस् द कर्ता इस् स्वयं हिम्सेल्फ् हि इस् द वन् हु इस् संवर्धन लिङ्ग संवर्धन एण्ड् चेतन तस्य कर्तृत्व कर्तुः किं भवति इति प्रश्नः कर्तृपदम् इत्यस्ति चेत् सा विभक्तिः भवेत् इति चिन्तनीयं वस्तुतः अस्मिन् के कर्ता अध्याह्रियते ओके इषवृक्षः इत्यत्र वस्तुतः तृतीया विभक्तिः भवेत् इति निश्चयः ऐ मीन् हियर् द कर्तृपदम् हस् नाट् बीन् टोल्ड् एक्स्प्लिसिट्लि किन्तु यदि कर्तृपदं भवति तर्हि तृतीया विभक्तिः भवति भवेत् यतोहि निपातेन कर्म अभिहितं कर्ता अनभिहितः तस्मात् तृतीयाविभक्तिः भवेत् स्वस्य प्रयोगस्य विषये अपि चर्चा अस्ति ओके दर् आर् law, there is a huge chacha about that prayoga itself, which is a different thing. Okay, good morning. సాంప్రతం వచ్చేస్తే ఉభయం బోత్ మీనింగ్ ఇది దిశా భగిన్య వచ్చేది సాంప్రత శబ్దస్య ఇదానీ ఇట్ వాజ్ నాట్ అవేర్ ఆఫ్ తర్హి అస్మిన్ ప్రయోగే తు సహ అర్థ నాస్తి ఇన్ దిస్ యూసేజ్ అట్ లీస్ట్ సాంప్రత డస్ నాట్ మీన్ లవ్ ఇట్ మీన్స్ ఇట్ నాట్ Any other questions? కౌనస్మిన్ సాంప్రతం లోకే గుణమాంతస్మిన్ సత్యం రామాయణే అస్తి ఇదానీం ఇత్యర్థే సాంప్రతం లోకః సత్యం తప్ప ఇదానీ ఇత్యర్థే సాంప్రత శబ్దస్య ఉపయోగ అస్తి కింటు అస్మిన్ ప్రయోగే తాదృశ అర్థ నాస్తి సాంప్రతికం ఇత్యపి అస్తి ప్రయోగ ఇదానీంతనం ఇత్యర్థే ఆమ్ ఎనీ అదర్ క్వశ్చన్ సత్పరిక్షితమం కర్మ ఇది పూర్వతన సూత్రం తస్మాత్ కర్మ ఇది అనువర్తతే ఇదం అది కర్మ సంయావిధాయకం సూత్రం కర్మ సమయాధాయకం ప్రథమం సూత్రమాసీత్ సత్పరీక్షితమం కర్మ ఇదం ద్వితీయం సూత్రం తథా ఇత్తం చ అనిశ్చితం తథా ఇత్తం తథా ఇత్తనేన పూర్వేణ సహ సాదృశ్యం గమ్యతే తథా మీన్స్ లైక్ దట్ లైక్ వాట్ లైక్ వాట్ హస్ బీన్ టోల్డ్ ఎర్లియర్ ఇన్ ద ప్రీవియస్ సూత్ర ద ప్రీవియస్ సూత్ర హస్ టోల్డ్ ఇచ్చితమం కర్మ భవతి ఇది ఉక్తం తథా ఇత్తం అనిశ్చితమపి కర్మ భవతి ఇది అనేన ఉచ్యతే ఇష్టతమం He touches grass on either side of the way. When he is walking on the way, there is grass growing. He just touches it. It is not an interdirectional. Then he does not desire very much to touch the grass. It just as he is going, it is almost an unconscious action. Or it just happens as he is moving. Idani, kartuhu trinasparshasi udreshaha nasti. He does not want to touch the grass. Ataha trinaha ishtita tamum. ఇష్టతమం కర్మ ఇది నవతి కేలా
सेवोक्तं तथा युक्तम् इदानीं यत्र इच्छ्युतमत्वम् अस्ति यथा गां पृशति सः गौः स्रष्टव्या इति विचिन्त्य यदा गत्वा गां पृशति तदा यथा गौः क्रियायाः सह सम्बन्धः भवति द सेम् वे इन् विच् यु वुड् टच् अ कौ वेन् हि वाण्ट्स् टु डू इट् यदा गौः इच्छ्युतमत्वम् अस्ति यथा स्पर्शक्रियया सह गौः सम्बन्धः भवति सम्बन्ध बिट्वीन् क्रिया एण्ड् द आब्जेक्ट् यथा ईप्सितमस्य क्रियया सह सम्बन्धः भवति तथैव अत्र क्षणस्य स्पर्शक्रियया सम्बन्धः द एक्शन् आफ् टचिङ्ग् एण्ड् द फ्रूट् द फलं च समानम् इट् इस् द सेम् वेदर् द कर्ता वाण्ट्स् टु डू इट् वेरि मच् आर् डस् नाट् केर् उपेक्ष्यं नाम दट् इट् इस् टु बि इग्नोर्ड् इट् इस् नाट् वेरि सिग्निफिकेण्ट् इत्यर्थः यदा कर्तुः इच्छितमत्वम् अस्ति अथवा इच्छा नास्ति स्पर्शक्रिया तु समाना एण्ड् द वे इन् विच् द कारक इस् असोसियेटेड् वित् द क्रिया इस् आल्सो द सेम् यथा गां स्पृशति इत्यत्र इच्छितमा गौः स्पृश्यते तथैव अत्र अनीच्छितमपि तृणं स्पृश्यते तत्र इच्छितमत्वं नास्ति तथापि कर्मकारकम् इष्यते इवन् इफ् इट् इस् नाट् डिसैड् बै द कर्ता कर्मत्वं भवति कथं भवति तथा युक्तं च अनीच्छितम् इवन् इफ् इट् इस् नाट् डिसैड् इवन् इफ् द कर्ता कान्शियस्ली डस् नाट् डिसैर् इट् तथापि तत्र कर्मसंज्ञा भवति तथा युक्तं च अनीच्छितम् इति सूत्रेण इदम् उपेक्षकर्मस्य उदाहरणं वेर् द whatever the karma pada is upekshya upekshya is to ignore so upekshya nama that is not really significant vitranam krishan gramam gachati ityatrapi tathaiva bhavatah vivakshata does he really want to touch the grass I mean there might be a child yadi kashchana balaha bhavati trinasparshe eva tasya uddesham bhavati if he likes to touch the grass and he touches it tada ichchitatamam kartarichchitatamam karma ityeva karma samya when it is not a significant thing when he does not think of it just like you are going and you touch a grass just some grass on the way it is there tada ka vivaksha iti drashtavyam sarvatra karakeshu it is not the just the vakya itself it is the intent even in gramam gacchan trinam prishati if I want to touch that grass there is something special about it I want to touch and see what it is तदा तु इच्छिततमं भवति कतुरिच्छिततमं कर्म इत्येव कर्मसंज्ञा यदा तु तथा विवक्षा नास्ति उपेक्ष्यम् इत्येव विवक्षा वेन् द इण्टेण्ट् इस् टु टेल् दट् दट् कर्म इस् नाट् सिग्निफिकेण्ट् इट् वास् नाट् डिसैर् तदा तु तथा युक्तं अनीक्षितम् इत्यनेन कर्मसंज्ञा भवति इदम् उपेक्ष्यकर्मस्य उदाहरणम् अग्रे विषम्भूते द्वेष्यस्य उदाहरणम् when the karta does not want to drink poison isham bhoktavyam iti tasya ichha eva nasti kenati shatruna balat isham isaha bhojyate asmai he is being to forcibly take visha poison tada kim bhavati ichchiratamatvam tu nasti karta bhoktum na ichchati eva purvatana kriyayam tasya tadvishaye adaraha nasti atra tu sarvatha dveshti विषभोजनं सर्वथा न इच्छति न इच्छितमं सत्युत द्वेष्यम् तदा किं भवति यथा फलं भूते इत्यादौ इच्छितमस्य फलस्य भोजनक्रियया सम्बन्धः वेन् हि इस् ईटिङ्ग् संथिङ्ग् इच् हि लैक् यदा फलं भूते फलं तस्य इच्छितमम् यथा तस्य फलस्य कारकस्य भोजनक्रियया सह सम्बन्धः भवति क्रियाकारकसम्बन्धः यः अस्ति स एव सम्बन्धः विषम्भूते इत्यत्रापि भवति सत्यं किल वेदर् इट् इस् फल इट् हीस् टेकिङ्ग् आर् विष द क्रिया इस् द सेम् गलविलाघसंयोगानुकूलः व्यापारः भुजिक्रिया गलविलाघसंयोगस्थलं तत्र फलं वेदर् हीस् ईटिङ्ग् फ्रूट् आर् अन्न आर् विष
क्रियाकारक सम्बन्ध रिमेन्स् द सेम् इच्छिततमं भवतु अथवा न भवतु अत एव उक्तम् इच्छिततमवत् क्रियया युक्तम् अनिश्चितमपि कारकम् तया क्रियया तथैव अस्यापि कारकस्य सम्बन्धः भवति तस्यापि अनेन सूत्रेण कर्मत्वं भवति इदं द्वेष्यकर्मणः उदाहरणम् अनिश्चितं कर्म द्विविधं भवति उपेक्ष्यं कर्म तस्यैव द्वेष्यं कर्म इति रामं गच्छन् स्त्रीं पृच्छति इति उपेक्षकर्मणः उदाहरणं द्वेष्यं द्वेषकर्मणः उदाहरणं भवति द्विषं पुंसे अत एव इदम् उभयं सङ्गृह्य कर्तृनिष्ठव्यापारत्रयोस्य फलाश्रयकर्म इन् द प्रीवियस् परिष्कृतं लक्षणम् इति यदृष्टं क्रियाजन्यफलाश्रयकर्म तत्तु उभयोः भवति दट् लक्षण विल् अप्लै टु बोत् तत्तु इच्छिततमस्यापि भवति अनिश्चितस्यापि भवति सर्वत्र क्रियाजन्यफलाश्रयत्वं यदि भवति तर्हि कर्मत्वं सो दट् लक्षण विल् अप्लै टु आल् यदि इच्छिततमं भवतु उपेक्ष्यं भवतु समाद्वेष्यं तेन लक्षणेन सर्वेषां सङ्ग्रहः भवति पाणिनिना तु सूत्रद्वयेन उक्तं कर्तुरीच्छिततमं कर्म तथैव तथायुक्तञ्च अनिश्चितम् इत्यनेन सो दिस् डिस्टिङ्क्षन् इस् बेस्ड् आन् वाट् द कर्ता थिङ्क्स् आर् वाट् हि इण्टेण्ड्स् इफ् हि इण्टेण्ड्स् टु एक्चुअलि केरि औट् दट् एक्शन् इफ् हि वाण्ट्स् टु डू इट् कर्तुरीच्छिततमं कर्म इत्यनेन भवति यदा तु तस्य उपेक्ष्यं भवति अथवा द्वेष्यं भवति तदा तथायुक्तञ्च अनिश्चितम् इत्यनेन कर्मसंज्ञा भवति विशाखभगिन्याः कश्चन प्रश्नः मया नावगतः वाक्ये प्रथमं कर्म इच्छुतनाम् इति नास्ति कर्म वेदर् इट् इस् इच्छुततम आर् नाट् इस् नाट् डिसैडेड् बै वेदर् इट् इस् फस्ट् आर् लास्ट् सर्वेषां क्रियापदानां तत्र सम्बद्धं कर्म भवति वेदर् दट् कर्म इस् इच्छुततम कर्म आर् अनिच्छुततम कर्म different when even when I say trinam srishati only trinam srishati it could be anichita karma ramam gacchan trinam srishati iti kimartham uchyate it is only to make the context clear because if he is on the way to the village on the way he is touching the grass yatra tasya tatvaryam nasti iti dyotayitameva ramam gacchan trinam srishati iti prayogaha kevalam trinam srishati ityati upeksha karmasi udaharanam bhavitum arhati Actually, it is only the Trinam Srishati part of it, which is an example of Upeksha Karma, not Gramam Gattham Trinam Srishati. It need not be that the same Anupurvi or the same construction. It is just to show that Trinasparsha is not the intended action of the Karta. That is all. अग्रिमं सूत्रम् अगेन् कर्मसमयापत्रणे एव स्मः कर्तुरीक्षिततमं कर्म तथा इच्छञ्च अनीक्षितम् अकथितञ्च कर्तरीक्षिततमं कर्म इत्यनेन कर्म इति अनुवर्तते कर्मसमयाविधायकं तृतीयं सूत्रम् टैपिङ्ग् एरर् इन् द स्लैड् It is not the second sutra which tells karma, it is the third sutra, which is giving karma samya. Sattarikshita tamam karma iti prathamam, dhaha itchanta anishtitam iti dhritiyam, akathitanta iti dhritiyam. Kimsede, akathitam sa karma samyam bhavati, akathitam, that which has not been, that is just not intended, is called karma. Kim akathitam, kena akathitam. Akathitam again means almost like anavihita. This is not told. Kena akathitam, iti prashnaha bhavati. Tada uchyate, apadanadi vishesha iti avivakshitam karakam karma sambandham syat. That karaka, this is not intended to be conveyed by other karakas like apadana. मया पूर्व एव उक्तं पाणिनेः अष्टाध्याय्यां कारकाणां क्रमः कथमस्ति आदौ अपादानं ततः संप्रदानम् ततः करणम् ततोऽधिकरणम् ततः कर्म अन्ते कर्ता अस्ति. कर्मकारकम् अन्ते अस्ति. इट् इस् आल्मोस्ट् अट् द एण्ड् आफ् द कारकप्रकरणम्. So when he says akathitam, he means that which is not told by the earlier one. Earlier nama apadanadi visheshaihi avivakshitam karakam. So avivakshitam, vivaksha, vaktuhu ichha, vivaksha. That which the karta indicates, that which the speaker indicates to convey is vivakshita. Vivakshatah karakani bhavanti iti sadharanam yamaha. Sarvani karakani vivakshatah bhavanti. It is only my intent which determines what I speak. Yada Ramaha Vanam Gacchati iti maya uchyate. Tatra ka vivaksha, Ramasya kartrutvena vivaksha asti, Manasya karmatvena vivaksha asti, Vamana kriyayasya vivaksha asti, Kartari prayogasya vivaksha asti. So the entire phrasing of the sentence is based on my vivaksha. What is it that I intend to convey? Karakanyati vivakshatah bhavanti. Mama vivaksha eva karakanam nirmesha. Yada ichchita tamatvena kasyachit vivaksha bhavati, tada tasya karma sammanam bhavati. Yada svatantratvena, svatantrena kasyachit vivaksha bhavati, tada tasya kartrutvam bhavati. So that is one way of understanding vivaksha is in the karta. It is very clear. He can say, Ramaha Ravanam Hanti. Rama kills Ravana. Svatantra karta iti tatra karakasya Ravana. He is a killing agent in action, is called karta. It's the general definition of the karta. Yada Ramasya svatantrena vivaksha bhavati, tada Ramaha Ravanam Hanti iti maya uchyate. Kintu बाणः रावणं सन्ति अथवा ब्रह्मास्त्रं रावणं सन्ति इत्यपि वक्तुं शक्यते किल. तर्हि ब्रह्मास्त्र किं रावणं तदा किमस्ति ब्रह्मास्त्रस्य स्वातन्त्र्येण विवक्षा अस्ति. ऐ इण्टेण्ट् टु कन्वे द ब्रह्मास्त्र इट्सेल्फ् अस् हेविङ्ग् स्वातन्त्र. इवन् दो इट् मैट् नाट् बि एक्चुअलि स्वतन्त्र. ब्रह्मास्त्रस्य प्रयोगं रामः एव कृतवान् इति सत्यं. तथापि मम विवक्षायां यदा तस्य स्वातन्त्र्यम् अस्ति तदा तस्य कर्तृत्वं भवति. ब्रह्मास्त्रं सन्ति इत्यपि भवति. एवं विवक्षातः कारकाणि भवन्ति. रामः ब्रह्मास्त्रेण रावणं हन्ति इत्यपि वक्तुं शक्यते. तदा रामस्य स्वातन्त्र्येण विवक्षा ब्रह्मास्त्रस्य करणत्वेन साधनत्वेन विवक्षा अस्ति. तस्मात् तदा तथा प्रयोगः भिद्यते विवक्षानुसारम्. सो विवक्षा इस् द प्रैम् प्रिन्सिपल् विच् गवर्न्स् आल् प्रयोगस् इन् कारक. अत्र किमुच्यते अपादानादि विशेषैः अविवक्षितं कारकम्. यदा अपादानादीनां कारकाणां सम्भवः अस्ति किन्तु तस्य विवक्षा नास्ति. कस्यचित् अपादानत्वम् अस्ति. देर् इस् संथिङ्ग् विच् केन् गेट् अपादानकारकं बट् ऐ डु नाट् वाण्ट् टु कन्वे इट् एस् अपादान. तदा किं भवति? तदा तस्य कर्मसंज्ञा भवति. देन् इट् विल् बिकम् कर्म. It has the possibility of getting karma samya when it is not intended to be conveyed by akaraka like apadana. It could be apadana, sampradana, adhikarana, anything. Tada tasya karma samya bhavati. Yada apadanadi rupena tasya chit karakasya vivaksha nasti. It is a karaka. Arthata kriyanvayitvam asti tasya. Kriyaya saha anvayati. Apadanatvena anvayaha mama na vivakshitaha. I do not want to convey it as related to the kriya as apadana. तदा तस्य कर्मसंज्ञा भवति अनेन सूत्रेण अकथितञ्च इति सूत्रेण. किन्तु सर्वेषां धातूनां न भवति. दिस् डस् नाट् हेपन् वित् आल् धातु. इट् इस् अ वेरि लिमिटेड् प्रयोग. केषाञ्चन एव धातूनां विषये एतादृशाः प्रयोगाः दृश्यन्ते. ते एव धातवः अस्माभिः द्विकर्मकाः इति उच्यन्ते. तेषाम् आवलिः अपि अस्ति. बिफोर् द डेल्ट् क्वश्चन् ग्रामं गच्छन् पतित्वा अस्ति वर्णं भवति. प्रयोग इस् नाट् कम्प्लीट्लि करेक्ट् अकौण्ट् अस्ति. अततः प्रश्नः अनीक्षितम् अनीक्षितम्
So you can make out the question, you can read it, it is very small. What is Ashaya? Kaha Ashaya ha prashna asti? अत्र ऐच्छिक अनिच्छितयोः प्रश्न एव नास्ति. ग्रामं गच्छति एकमेव कर्म अस्ति. There is no कर्मद्वयं here. There is only one कर्म which is ग्राम. गमनक्रियायां ग्रामः कर्म. सत्ताक्रियायां भवति इति क्रियायाम् अस्ति कर्म नास्ति. धातूनाम् आवलिः अस्ति कारिकायाम्. दुहादीनां द्वादशानां दुहुयाच् पच् दण्ड् रुधि सच्छि सि दृ शासु हि मथ बुष इति द्वादश धातवः. एतेषां द्वादशानां तथा नी हृ कृषु वः एतेषां चतुर्णाम् आहत्य षोडश धातूनां कर्मणा यद्युज्यते. कर्मणा सह यत् वस्तुतः कर्म अस्ति तेन सह क्रियया सम्बध्यमानं कारकम् अकथितं कर्म भवति इति परिगणनं कर्तव्यम्. सो अकथितं च इति यत्सूत्रमस्ति सर्वेषां धातूनां विषये न भवति. यु केनाट् यूस् अकथितकर्म इन् केस् आफ् आल् धातु. इन् केस् आफ् द अबौ सेड् धातु एतेषां धातूनां विषये अपादानादिविशेषैः अविवक्षितं कारकं कर्मसंज्ञं भवति इति परिगणनं कर्तव्यम्. फस्ट् थिङ्ग् इस् द सूत्र अप्लैस् ओन्ली इन् केस् आफ् दीस् धातु 16 धातु मुख्यकारकेण सह अलाङ्ग् वित् द मेन् कर्मकारक क्रियया सम्बध्यमानं कारकम् एव अपादानादिविशेषैः अकथितं तत् नाट् बीन् इण्टेण्डेड् टु बि कन्वेड् एस् अपादानाधिकरण आर् एनि अदर् थिङ्ग् कर्मसंज्ञकं भवति. तस्य कर्मसंज्ञा भवति तेन दुहादीनां द्विकर्मकत्वं मुख्यं यत् कर्म अस्ति तदप्यस्ति. अन्येन कारकेण अविवक्षितं यदस्ति तदपि कर्मकारकं भवति. एवं द्विकर्म कर्मद्वयं भवति. अत एव एते धातवः द्विकर्मकाः इति उच्यन्ते. ये धातवः दुःप्रपूरणे इति धातुः दुः इस् टु लिङ्क् असौ कौण्डोभि सु यात्र यान्तायां यातते सु आस्क् दुपतश् पाके पचति इस्तु कुक् दण्ड दण्डनिपातने दण्डयति इस्तु फैन् टु पुट् अ फैन् टु कलेक्ट् अ फैन् इस् काल्ड् दण्डन इन् दिस् सेन्स् शिक्षा अथवा पनिश्मेण्ट् इत्यर्थेपि अस्ति दण्डशब्दः. किन्तु वस्तुतः तस्य अर्थः धनस्य आदानम् एस् अ पनिश्मेण्ट् इति फैन् एस् अ पनिश्मेण्ट् इत्येव रुधिर् आवरणे ऋणद्धि इत्यस्य टु प्रिवेण्ट् to cover, to stop Rastra Nithayam Prithyati is the intent to know is called Prithya. Chi Sayane Chinoti is to collect. Bruni Yaktayam Vachi Bru Dhatuhu Vadati Braviti Vadati Shasu Anushishtau Shasti is to rule or it is also to tell. शासनं करोति इत्युक्ते टु अड्वैस् आर् टु टेल् संथिङ्ग् इस् आल्सो शास्ति इस् आल्सो टु रूल् जी अपि भवे जयति इस् कान्कर् अगेन् इट् इस् मेनि टैम् इट् इस् गिवन् विनिङ्ग् संथिङ्ग्. उदाहरणार्थं बेटिङ्ग् मध्ये जयति इत्यस्य किञ्चित् धनं प्राप्नोति इत्यर्थः. तस्मिन् अर्थे जयति इत्यस्ति सामान्यतः जयति इत्यस्य कौङ्कर् इत्यर्थः. मन्थ विलोडने मत्नाति चर्न चर्न मिल्क चर्न बटर मिल्क चर्न ओशन मुष चेये मुष्णाति चोरयति स्टील इज मुषम नी प्रापणे नयति टेक और कैरी स्त्री हरणे हरति इत्यादि तयैव अर्थः इति वर्णो तु सेम टू के कृष विलेखने कर्षति इज इदर टू फ्लो इन फ्लो ऑफ ही दैट इज कॉल्ड कर्षति कर्षति इज ऑल्सो टू फोर्सिबली टेक समबडी वह प्रापणे अपि वहति इत्यादि कैरिंग तो एते चत्वारः अपि धातवः प्रायेण समाना मतलब ऑलमोस्ट द सेम ओनली द मीन्स ऑफ टेकिंग और कैरिंग में वेरी किंतु प्रायेण समाना ये अभी भवे इति प्रश्न जयति सेवा प्रायेण उपसर्ग पूर्वक सभी कदाचित अर्थ किंतु जयति पराजयते तदेव विजयते पराजयते विपराभ्यान्तेः इति सूत्रेण लि इत्यस्मात् विपूर्वकात् परा इत्यस्मात् पूर्वकात् च लि धातोः अर्थनेपदित्वं भवति किन्तु जयति इति परस्मैपदि सत्यमेव जयते इति आशयप्रयोगः फ्रम् द वेद यू केनाट् कण्टेस्ट् वाट् इस् टोल्ड् देयर् आर् ऋषिप्रयोग किन्तु जयति इति परस्मैपदि एव विजयते इति आत्मनेपदी एव पराजयते इत्यपि आत्मनेपदी एव तदर्थं सूत्राणि सन्ति सत्यमेव जयते इति तु आर्षः प्रयोगः तेन तस्य साधुत्वम् इदानीम् एतेषां धातूनां विषये विकर्मकाणां धातूनां विषये कर्मद्वयं भवति विकर्मकाः कर्मद्वयं प्रधानकर्म तथैव अप्रधानकर्म इति उच्यते सामान्यतः यत् कर्म अर्थात् क्रियाजन्यफलाश्रयम् क्रियाजन्यफलाश्रयः कर्म इति उच्यते तत्तु प्रधानकर्म द ओरिजिनल् कर्मपद आफ् दट् धातु इस् काल्ड् प्रधानकर्म यत्तु अन्यैः कारकैः अविवक्षितं तत् कर्मसंयोगं भवति दट् वेन् इण्टेण्डेड् टु नाट् इण्टेण्डेड् कम् कारकविशेष इस् नाट् इण्टेण्डेड् किन्तु कर्मसंयोगं भवति अनेन कथितं च इति सूत्रेण यत् कर्म भवति तत् अप्रधानं कर्म अथवा गौणं कर्म अथवा अकथितकर्म इत्यपि उच्यते काल्ड् बै आल् त्री मेन्स् इट् इस् काल्ड् अप्रधानकर्म आर् गौणकर्म आर् अकथितकर्म प्रधानं यत् मुख्यं कर्म भवति तद् प्रधानकर्म अथवा मुख्यकर्म इति उच्यते इदानीम् एतेषां सर्वेषाम् उदाहरणानि दीयन्ते प्रथमम् उदाहरणम् अद्य पश्यामः अन्यत् श्वः कुर्मः राम दोर्भिपयः इति प्रथमम् उदाहरणं विकर्मकप्रयोगस्य कर्ता नोक्तः टोल्ड् द कर्ता इन् ब्राकेट् जस्ट् फार् क्लारिफिकेशन् पुस्तके तु राम दोर्भिपयः इत्येव अस्ति तदेव उदाहरणं कर्मद्वयम् अस्ति सर्वत्र प्रधानकर्मणः नीलवर्णेन सिंहं भवति प्रधानकर्मणः अथवा गौणकर्म द वन् इस् गेट् द कर्मसंज्ञा वै अकथितं च रसदसूत्रेण यस्य कर्मसंज्ञा अस्ति तस्य रक्तवर्णेन चिह्नः कृतः अस्ति सर्जिकरि माल् सेण्टेन्स् ऐ हव् मार्क्ड् द गौणकर्म वित् रेड् अण्ड् द प्रधानकर्म वित् ब्लू ब्राकेट् मध्ये यदस्ति तत्तु कर्तुः निर्देशः स्पष्टार्थं तावदेव इट् इस् ओन्लि फर् कर्ता इट् ईस् नाट् दि गोपालः तस्य भवितुम् अर्हति गां दोग्धिपयः इति उदाहरणं गोपालः दोग्धि द कौहर्ड् मिल्क् किं लोहनं नाम किं दुर्धातोः अर्थः शरणानुकूलः व्यापारः शरणं नाम किमिति पुनः अस्ति इत्युक्ते भवतां समीपे सिद्धान्तकौमुदी मूलग्रन्थः अस्ति चेत् बालमनोरमा व्याख्यासहितं मूलग्रन्थः अस्ति चेत् तत्र बालमनोरमायां पश्यन्तु सर्वेषां धातूनां अर्थः सम्यक् दत्तः गिवन् वेरि प्रिसैस् मीनिङ्ग् आफ़् ईच् धातु अहं केषाञ्चनेव धातूनां दत्तवती अन्येषामेव अर्थेन दत्तं किन्तु इट् वेरि वेरि प्रिसैस् डेफिनेशन्स् आफ़् ईच् धातु वाट् डस् द धातु मीन् इति सम्यक् दत्तमस्ति यदि पुस्तकमस्ति एकवारं पश्यन्तु तर्हि दोहनं नाम शरणानुकूल व्यापार शरण सेपरेट मिल्क लोहनम इज मिल्क फॉर मिल्किंग सेवा अर्थ तत्र कर्म किं प्रधानम कर्म किं आई मेड अ मिस्टेक डायरेक्टली हियर हियर पयः इज एक्चुअली द प्रधान कर्म एंड गौहु इज द अप्रधान कर्म आई थिंक आई हैव रिवर्स द कलर हियर और आई एम टेलिंग यू जस्ट टू बी Here actually gam should be red and payaha should be blue. Payaha pradhanam karma. Kim dobhi? What does he make? Charanam kasya bhavati. Charanam phalam. Charanasya ashraya bhavati. Payaha pradhanam karma. The main action here is milk. The main karma here is milk. Gauhu vasyutaha apadanam. Gopalaha gohu payaha dobhi. He takes milk. He milks the milk. From the cow. Goha apadanatvam asti. Gohapaye apadanam ityanena. The cow is actually apadana. Apadana is that from which something is separated. Vrikshat phalam patati. The fruit is falling from where? From the tree. Similarly, the milk is being milked. From where it is? Gohu iti uttaram bhavati. Ataha gohu apadanam. Kintu yada apadanasi vivakshana asti. When I do not want to indicate it as apadana, tada anena sutrena pratibandha ityanena karma samya bhavati gam payaha dobhi. Payaha pradhanam karma, gauhu pradhanam karma, athava gauna karma. Ubhayohu karma samya asti, karmani dvitiya ityanena ubhayohu dvitiya vibhakti bhavati. Dvitiya vibhakti for both is by karmani dvitiya. Kintu payataha कर्तृतमं कर्म इत्यनेन कर्म सम्यक् यतोहि कर्तुः गोपालस्य इच्छिततमं भवति अयः गोः तु कथितञ्च इत्यनेन कर्म सम्यक् सो दुः धातोः कर्मद्वयं विद्यते अयः अपि कर्म गौः अपि कर्म वै वुड् यु नाट् वाण्ट् टु यूस् अपादानम् एज़् ऐ सेड् विवक्षा यु डु नाट् इण्टेण्ड् the goat to be sold as apadana. The relation between the goat and the kriya, you do not intend the apadanatva to be sold. Okay. So, this is again vivaksha. Why is it not a question? This is just how you want to phrase your sentence. Okay. So, it is all vivaksha. Wish of the person who is speaking. I could say, if I wanted to say, I am perfectly allowed to use gopalaha gohu payaha dobhi. Tattu satyam. तत्तु समीचीनमेव यदि अपादानम् उपयुज्यते तदा समीचीनमेव अयं प्रयोगः साधुसम्मतः इट् इस् नाट् आल्वेस् दट् द अदर् प्रयोग कुड् बि करेक्ट् ओके द अदर् प्रयोग इस् देयर् किन्तु तदपि समीचीनं गोः पयः दोग्धि इति फैन् किन्तु अत्रैव शिष्टप्रयोगः अधिकतया दृश्यते विकर्मकानां धातूनां विषये यद्यपि अन्यथा विवक्षा अविवक्षा इत्यस्ति तथापि विकर्मकप्रयोगे एव शिष्टानाम् आदरः दृश्यते यु सी दट् मोस्ट् आफ् द प्रयोग आर् गां दोग्धिपयः इत्येव प्रयोगाः दृश्यन्ते गोपपयः दोग्धि इति यद्यपि व्याकरणरीत्या समीचीनं प्रयोगः न दृश्यते And I told always in Vyakarana, Prayoga Charanaha. We always go by Prayoga. How is the Prayoga? Even though the other Prayoga may be theoretically correct, practically which is most preferred by older poets or scholars, Tasyaya Prayogaha Adhikataya Kriyate. Ataha, Satra Asadhutvam iti nasti, kintu ayam Tasyasya Taraha Prayogaha. This Prayoga is better. Deva. गां दोग्धि गोपालः गां दोग्धि इति भवितुम् अर्हति वा इति कश्चित् प्रश्नः अस्ति भवितुमर्हति पुनः विवक्षा यदि गोः इष्टतमत्वं विवक्ष्यते गां दोग्धि इत्यपि समीचीनं गोपालः क्षीरं दोग्धि अथवा पयः दोग्धि इत्यपि उत्तमः प्रयोगः गोपालः गां पयः दोग्धि इत्यपि प्रयोगः का विवक्षा इति द्रष्टव्यम् एव्रीवेर् यु हव् टु सी वाट् इस् द इण्टेण्ट् इण्टेण्ट् डिफर्स् प्रयोगास् आर् आल् करेक्ट् गोपालः गां दोग्धि इत्यपि समीचीनं पयः दोग्धि इत्यपि साधु गां पयः दोग्धि इत्यपि साधु अत एव उच्यते विवक्षातकारकाणि भवन्ति. एव्रीवेर् वाट् इस् द विवक्षा, डिपेण्डिङ्ग् आन् द विवक्षा दिस् प्रयोग मेड् बि राङ्ग्. वेन् यु हाव् अपादान विवक्षा तदा वाम् लोभि इति असाधु. यदा अपादानस्य अविवक्षा अस्ति तदा गोः दोग्धि इति असाधु. द होल् पायिण्ट् इस् दस् युर् विवक्षा कोइन्सैड् वित् वाट् युर् सेयिङ्ग् इत्येव. ज्ञानविवक्षायां कथं प्रयोगः करणीयः इत्येव प्रश्नः. अद्य अत्र स्थगयामः. देर् आर् अदर् एक्साम्पल्स् फार् आल् धातु, सो वि विल् टेक् देम् अप् वन् बै वन् टुमारो. श्वस्तनकक्षायां सर्वेषां प्रयोगाणां विचारे कथयामः. येनाक्षरसमां नायम् अधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. भाष्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयं नमस्कृत्य तदुक्तीश्वरी भाष्य च वैयाकरणसिद्धान्तकौमुदीहं विरच्यते.